वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ओम शांति 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 हरि ओम तत्सद् श्री गुरुभ्यो नमः हरि ओम
धन्यवादः अंबिकापति महोदय धन्यवाद सर्वेषां स्वागतम् वयम् आरम्भं कुर्मः टुडे व्हाट वी हैव टू डू इज वी आर गोइंग टू लर्न just 16 words only 16 words we are going to learn today and that too you must be knowing all these 16 words but what we are going to do here is we'll be asking the questions and answers to each other we'll be asking number of questions okay so and just one slide I made that's all listening talking then we'll have some other oral component also लेट् स्टार्ट् ओके सर्वे सज्जाः सन्ति इति मन्ये आरम्भं कुर्मः श्यामला भगिनी श्यामला भगिनी नमस्ते नमस्ते
नमस्ते
नौ लिसन् केर्फुलि श्यामला भगिनी अहं नीता अहं नीता भवती श्यामला भवती श्यामला भवती का भवती का
अहं श्यामला अहं श्यामला
तथैव भवती श्यामला इदानीं मां पृच्छतु आस्क मी द क्वेश्चन
भवती का
अहं नीता अहं नीता श्रीवत्समहोदय श्रीवत्समहोदय अस्ति वा
नमस्ते भगिनी
महोदय अहं नीता भवान् श्रीवत्समहोदयः भवान् कः
अहं श्रीवत्स
तथैव इदानीं मां पृच्छतु
अहं श्रीवत्स भवती का
भवती का दट्स् अ वे टु आस्क् करेक्ट् अहं नीता सम्यक् इदानीं राधा भगिनी
राधा भगिनी
नमस्ते राधा भगिनी चिन्तयतु भवती वैद्या अस्ति भवती वैद्या वैद्या का
व्हाट डस कृति वैद्या मीन्स्
वैद्या वैद्या मीन्स् डॉक्टर
या
डॉक्टर
सो यस
ओके सो जस्ट इमेजिन यू आर वैद्या
ओके
एंड आई एम आस्किंग यू
ओके
वैद्या का
अहं वैद्या
दैट्स इट वेरी नाइस वेरी नाइस इदानीं रमणी भगिनी हा भगिनी इदानीं जस्ट चिन्तयतु हा जस्ट यू हैव टू थिंक और यू मे बी आई डोंट नो भवती लेखिका अस्ति भवती अस्ति वा भवती लेखिका अस्ति वा ओके भवती लेखिका अत्र लेखिका का
हेलो
रमी भगिनी जस्ट इमेजिन यू आर लेखिका इत्युक्ते लेडी राइटर यू आर
ओके
यू लेखिका का
अहम लेखिका
नौ ओके वीणा भगिनी अस्तु वीणा भगिनी हा हा इदानीम् अहं पृच्छामि लक्ष्मी भगिनी लक्ष्मी भगिनी
यस्
लेखिका का
अहं लेखिका और आई डोंट नो समबडी एल्स इज लेखिका राधा लेखिका
हा भवती लेखिका वा इन द अदर वे यू कैन से सा लेखिका राधा भगिनी लेखिका अस्ति खलु sa lekhika. She is in our group. We can say esha lekhika. Are you following the difference? See, this is just
two. Yes.
Everybody following? Huh? So, aham.
Aham.
Aham. Bhavati.
Aham lekhika. Esha. I am referring to Radha. Esha lekhika.
Correct. Esha lekhika. Yeah. Or chinte tu Radha bhagine dure sthita asti. Sa lekhika.
Sa lekhika.
Esha lekhika, sa lekhika. Or if you are telling to Radha Bhagini, Chintayetu, you are telling to Radha Bhagini, you are a lekhika. So you are a writer.
Aham That's lekhika. What
you are telling to Radha. No, you are telling to Radha Bhagini.
Okay. Radha Bhagini, Bhagini, aham lekhika.
Bhavati lekhika.
Oh, she is a writer. Okay. Bhavati lekhika. Okay.
Bhavati lekhika. Okay.
Bhavati lekhika.
Yes, Bhavati lekhika. We are telling this statement to Radha Bhagini. So, Radha Bhagini, Bhavati lekhika. Okay.
Radha Bhagini. Yes.
Idanim, Chintayetu Lakshmi Bhagini. Lakshmi Bhagini, Bhavati, Bhavati Adhyapika Asti. Bhavati Adhyapika Asti. रमणी भगिनी तत्र छात्रा अस्ति
ओके
लक्ष्मी भगिनी अध्यापिका रमणी भगिनी छात्रा इदानीं जस्ट एस्टैब्लिश द कन्वर्सेशन बिटवीन यू
ओके सॉरी हु डिड यू से वाज माय छात्रा
रमणी भगिनी
नमस्कारः अध्यापिका
हां
मम नाम रमणी
ओके नमस्कारः छात्र नो रमणी नमस्कारः रमणी अहम् अध्यापिका
अहम् अध्यापिका
धन्यवादः
हा अहम् अध्यापिका नौ यू आर् आस्किङ्ग् रमणी भगिनी लक्ष्मी भगिनी हु आर् यू ओके
ओके
सेम् द क्वेश्चन
भवती का
अहं रमणी
अहं छात्रा नौ यू आर् इन् द रोल् आफ़् छात्रा ओके सो रमणी भगिनी विल् आन्सर् लक्ष्मी भगिनी पृच्छति भवती का रमणी भगिनी इस् आन्सरिङ्ग् अहं छात्रा इदानीं यू केन् आस्क् लक्ष्मी भगिनी इफ् यु आर् सीङ्ग् इट् फोर् द इमेजिन् इफ् यु आर् सीङ्ग् हर् फोर् द फस्ट् टैम् सो आस्क् नौ
भवती का
वदतु
अहम् अध्यापिका
बहु सम्यक् नो इदानीम् अत्र राधा भगिनी वीणा भगिनी इस् नाट् एबल् टु ओके फैन् राधा भगिनी यु आर् गोयिङ्ग् टु अड्रेस् बोथ् आफ् देम् लक्ष्मी भगिनी एज् अध्यापिका एण्ड् रमणी भगिनी एज् छात्रा आस्क् देम् क्वेशन्स्
लक्ष्मी भगिनी भवती का
अहम् अध्यापिका
बहु सम्यक्
रमणी भगिनी भवती का
अहं छात्रा
बहु सम्यक् बहु सम्यक् वेरि नैस् वेरि नैस् नौ धन्यवादः नौ वी आर् गोयिङ्ग् टु इन्वाल्व् जयन्ती भगिनी एण्ड् जयन्ती भगिनी एण्ड् अवस्तु महोदय नमस्ते जयन्ती भगिनी अगस्टो महोदय नमो नमः
नमो नमः
नमो नमः अगस्टो महोदय अहं नीता भवान् कः
अहम् अगस्टो
बहु सम्यक् नौ आस्क् मी द क्वेश्चन्
भवती का
बहु सम्यक् अहं नीता ओके नौ जयन्ती भगिनी इमेजिन् युवर् सेल्फ् एज् परिचारिका परिचारिका इत्युक्ते किम्
परिचारिका टु सर्व् सर्व्
नर्स् नर्स् नर्स्
ओके
ओके सो इमेजिन् युवर् सेल्फ् एज् परिचारिका एण्ड् अगस्त महोदय न्यायाधीशः अगस्त महोदय न्यायाधीशः इत्युक्ते
judge illa beni judge killa
judge okay and now ask each other questions augusta mohoday everybody
I have to ask augusta mohoday what
prichatu
bhavan kaha augusta mohodaya bhavan kaha
hum nyayadhisha
bahu samdas now ask her augusta mohodaya
sorry what's Jayanti. The name of the Jayanti Jayanti Vijayan bhavati ka
aham paricharika
bahu samyak now Dipti bhagini you are going to ask to both of them augusta mohodaya and Jayanti bhagini prichatu
augusta mohodaya bhavan kaha
अहं न्यायाधीश
ओके वेरी नाइस एंड जयंती
भगिनी जयंती भगिनी
परिचारिका अहं परिचारिका
दीप्ति भगिनी जस्ट रिपीट योर क्वेश्चन
जयंती भगिनी भवती का
भवती का बहु सम्यक् अहं
अहं परिचारिका
सम्यक् बहु सम्यक् वेरी नाइस
Diti Mahodaya, what is the word for judge?
Nayadisha.
Okay, fine.
Okay, nice. We have the conversation. Dr. Ambikapati Mahodaya and Rajan Mahodaya. Okay, Sajja Astiva. राजन् महोदय
धन्यवादः
अम्बिकापति ओके राजन् महोदय चिन्तयतु यु आर् शौचिकः शौचिकः जस्ट् इमेजिन् यु आर् शौचिकः शौचिकः इत्युक्ते सो इमेजिन् युवर् सेल्फ् एस् शौचिकरः अम्बिकापति महोदय यु आर् स्वर्णकारः 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 इत्युक्ते
ज्वेलर् स्मित् मेक् गोल्ड् स्मित्
ओके नौ आस्क् युवर् सेल्फ् क्वेश्चन्
राजन् महोदय भवान् कः
अहं कौचि वाट् इस् द वर्ड् मेम् कौचिकः अहं कौचिकः
इदानीम् आस्ति
अम्बिकापतिमहोदय अम्बिकापतिमहोदय भवान् कः
स्वर्णकारः कारः
अहं स्वर्णकारः ओके अहं बहु सम्यक् बहु सम्यक् अनिता भगिनी
आं महोदय श्रूयते वा
श्रूयते
श्रूयते
अनिता महोदय अहं नीता भवती का
अहम् अनिता भगिनी
भवती अनीता अहं नीता
भवती नीता
अहं नीता भवती अनीता ओके नौ यु आस्क् मायरा बिटिया मायरा आर् यू देर् बेटा आर् यू रेडी ओके नौ अनीता भगिनी यु आस्क् एनी क्वेश्चन् टु मायरा बिटी
मायरा अहम् अनीता अस्मि अहं नोर्वे देशे अस्मि त्वं कुत्र अस्ति
वेरि नैस् वेरि नैस् वेरि नैस्लि सेड् नौ जस्ट् आस्कर् एनी क्वेश्चन्
मायरा त्वं का त्वं कः भवत् भवत् भवान् कः
भवती मायरा शीज
भवती मायरा भवती का
भवती का स्त्रीलिङ्गे भवती क्वेशन् फोर् का भवान् पुल्लिङ्गे क्वेशन् त्वः ओके सो यु आर् आस्किङ्ग् मायरा मायरा इस् अ गर्ल् चैल्ड् सो यु केन् से भवती का बट् इफ् बट् इफ् यु आस् शैलेन्द्र महोदय अनिता भगिनी वट् वुड् बि द क्वेशन्
भवान् कः
भवान् कः बहु सम्यक् अनिता भगिनी वेरि नैस् भवान् कः भवती का अहं नो हियर् अहं वदामि अहं छात्रा अहं संस्कृतविषयस्य छात्रा अत्र दीप्तिभगिनी छात्रा अनिता भगिनी छात्रा अम्बिकापतिमहोदय छात्रः जयन्ती भगिनी छात्रा राजन् महोदय छात्रः सो वी आल् आर् स्टुडेण्ट्स् वयं
छात्राः
वदतु एकवारम् अनिता भगिनी
वयं छात्राः
बहु सम्यक् वयं छात्राः अहं छात्रा वयं छात्राः ओके नौ अधुना म्यूट् करोतु अनिता भगिनी धन्यवादः बहु सम्यक् लास्ट् सम्वन् इस् हू इस् लेफ्ट् शैलेन्द्रमहोदय शैलेन्द्रमहोदय नमो नमः शैलेन्द्रमहोदय शैलेन्द्रमहोदय भवान् छात्रः राजन् महोदय छात्रः अगस्ट् महोदय छात्रः सो यु थ्री हेव् टु से छात्र विषये You three have to say that we all are students. Come on, all of you, say at one time.
I am a chhatra.
Now, Dipti Bhagini, Jayanti Bhagini, Lakshmi Bhagini, Dipti Bhagini, Mahila, Jayanti Bhagini, Mahila, Lakshmi Bhagini, Mahila. Now, you three together, say?
Vayam
Chhatraha.
Mahila.
Vayam, Puna Ekavaram,
Vayam Bhagini. Vayam Chhatraha.
No, Chhatra to above, Mahila.
Mahilaah.
महिलाः ओके महिलाः बिकास् यु थ्री आर् देयर् न एका महिला दीप्ति भगिनी महिला जयन्ती भगिनी महिला लक्ष्मी भगिनी महिला परन्तु इफ् यु आर् सेङ्ग् टुगेदर् यु आल् त्री वयं महिलाः ओके वयं महिलाः ओके नौ वाट् ऐ एम् सेङ्ग् यु थ्री ऐ एम् टेलिङ्ग् यु थ्री भवत्यः महिलाः वाट् ऐ एम् सेयिङ्ग् भवत्यः महिलाः वाट् इस् दिस् भवत्यः
प्लूरल् आफ् भवति
प्लूरल् भवति
करेक्ट् भवत्यः महिलाः नौ द सेम् थिङ्ग् जयन्ती भगिनी यु आर् गोयिङ्ग् टु टेल् दिस् you are going to tell them that they are chhatra to whom ambikapati mahodaya to rajan mahodaya and to shailendra mahodaya you are going to tell them that you are students
astu bin bhavantah chhatraha
bahu samyak bhavantah छात्राः सो वाट् इस् द डिफ्रेन्स् बिट्वीन् भवत्यः एण्ड् भवन्तः
तत्र इन्तः भवन्तः इति आगच्छति, इत्र त्यः यकारम् आगच्छति.
भवन्तः कदा आगच्छति?
भवान् षष्टिविभक्ति लभेनि
पुल्लिङ्गे पुल्लिङ्गे
पुल्लिङ्गे
बहुवचनान्तरूपम् स्त्रीलिङ्गे बहुवचनान्तरूपं किमस्ति?
भवत्यः
भवत्यः. ओके राइट. सो इज दिस पार्ट क्लियर टू यू एवरीबडी? लेट अस हैव वन मोर एग्जांपल. सेल्वी भगिनी अपि अस्ति अत्र. ओके सेल्वी भगिनी, नमो नमः सेल्वी भगिनी. ओके नो सेल्वी भगिनी, यू आर गोइंग टू टेल दिस टू राधा भगिनी, राधा भगिनी, श्यामला भगिनी एंड वीणा भगिनी. यू आर गोइंग टू टेल देम दैट दे आर महिला. जस्ट टेल देम
भवत्याः महिलाः.
भवत्यः तत्र भवत्या, आई विल जस्ट राइट इट एंड शो इट टू लेटर ऑन. फर्स्ट हाव ओरल एक्सरसाइज. ओके लेटर ऑन आई विल राइट एवरीथिंग. भवत्यः महिलाः. पुनः एकवारं वदतु कृपया.
भवत्याः महिलाः.
ओके नाउ इमेजिन इमेजिन शैलेन्द्र महोदय अध्यापकः अस्ति, श्रीवत्स महोदय अध्यापकः अस्ति, अम्बिकापति महोदय अध्यापकः अस्ति. सेल्वी भगिनी आर गोइंग टू टेल देम दीस थ्री दैट दे आर अध्यापका, दे आर ऑल टीचर्स. हाउ डू यू टेल?
भवन्तः अध्यापकाः.
अध्यापकाः, भवन्तः अध्यापकाः. ओके नाउ सेल्वी भगिनी, यू वांट टू आस्क देम हू आर यू, हू आर यू. फर्स्ट आस्क शैलेश शैलेन्द्र महोदय, पृच्छतु. मायरा बेटी म्यूट करोतु कृपया, एकनिमिषं म्यूट करोतु. हा सेल्वी भगिनी पृच्छतु,
भवतः नाम किम्?
हा भवान् कः इति पृच्छतु शैलेन्द्रमहोदय. भवान् कः? एण्ड् देन् शैलेन्द्रमहोदय विल् आन्सर् अहम् अध्यापकः. हा वदतु 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 क्षम्यता.
अहम् अध्यापकः.
ओके नो द सेम क्वेश्चन यू आर गोइंग टू आस्क दिस टू अम्बिकापति महोदय. सेल्वी भगिनी पृच्छतु,
भवान् कः?
अहम् अध्यापकः.
ओके एंड देन सेम क्वेश्चन टू अगस्टो महोदय, आस्क सेल्वी भगिनी पृच्छतु,
भवान् कः?
अहम् अध्यापकः.
ओके नाउ नाउ लक्ष्मी भगिनी, यू आर गोइंग टू आस्क द सेम क्वेश्चन टू दीस थ्री ऑल टुगेदर, शैलेन्द्र महोदय, अम्बिकापति महोदय एंड अगस्टो महोदय. पृच्छतु.
यस भवन्तः के? आई थिंक भवन्तः
भवन्तः के, बहु सम्यक्. ओके सी नाउ द जस्ट ट्राई टू अंडरस्टैंड द ट्रांसफॉर्मेशन. भवान् कः? भवती का? भवान् कः? भवती का? भवत्यः महिलाः. भवन्तः अध्यापकाः. भवन्तः के? भवन्तः अध्यापकाः. भवन्तः के? नौ वाट् वुड् बि द आन्सर् फ्रोम् दीस् थ्री, शैलेन्द्र महोदय, अम्बिकापति महोदय एण्ड् अगस्टो महोदय? कम् आन् गिव् द आन्सर् आल् टुगेदर्. शी इस् आस्किङ्ग् यू भवन्तः के, वाट् इस् द आन्सर्?
वयम् अध्यापकाः.
vayam adhyapakah. Okay, right? Okay, so now aham, vayam, bhavan, bhavantah, bhavati, bhavatyah, kah, ke, ka. Let us come to that ka part. Okay, now Dipti Bhagini, Minal Bhagini, Dipti Bhagini, Minal Bhagini, and Veena Bhagini. Dipti Bhagini, Minal Bhagini, Veena Bhagini. Bhavatya, Bhavatya, Gaikaah. Bhavatya, Gaikaah. Bhavatyah Gaikaah. Now Shyamala Bhagini is going to ask them the question, who are they? Yes, Shyamala Bhagini.
Namaste.
Namaste. Shall I repeat it once again?
Repeat it. One second, repeat.
Yeah. See. Dipti Bhagini, Jayanti Bhagini, and Veena Bhagini. Dipti Bhagini, Jayanti Bhagini, Veena Bhagini. I'm telling them. Bhavatyah, Bhavatyah, Gaikaah. Bhavatyah, Gaikaah.
Gaikaah.
Now you make the question and ask them.
Bhavatya ka.
Bhavatyah ka.
Bhavatyah ka.
Vayam gaikaah.
Vayam gaikaah. That is the answer. Okay. So, bhavan kah. Bhavantah ke. Bhavati ka, bhavatyah kaha. I'll write everything later on. I'll be writing everything, and even the chart is ready for you. The slide is ready for you. Don't worry at all. But just try to understand, right? And try to remember it, right? Oral component is very important by studying Sanskrit. So, aham, vayam, bhavan, bhavantah, bhavati, bhavatyah, bhavan kah, bhavantah ke, bhavati ka, bhavatyah kaha. Now, next. Sah, I'm pointing out somewhere. Sah, vrukshah. Saha Vrukshah. Frame the question, Rajan Mohdaya.
Question, madam, again.
Saha Vrukshah. I am just pointing out there is a tree. I can see from my window. So I am saying Saha Vrukshah.
Tat ka.
Saha kah. Saha kah. Okay, Rajan Mohdaya. Saha vrukshah. Saha kah. See, how do we say? Saha balakah. Saha kah. Saha balakah. Eshah balakah. Eshah kah. Eshah balakah. Bhavan balakah, I'm telling that. Bhavan balakah, bhavan kah, aham balakah. Is it clear to you, Rajan Mohdaya?
Yeah, clear, madam.
Yes. So, saha vrukshah, saha kah, saha kah. Okay, now. Minal Bhagini. Minal Bhagini. Minal Bhagini Astiva? Minal Bhagini?
Bhagini.
Sa balika. sa balika. Frame the question.
भगिनी भगिनी श्रुवति
श्रूयते श्रूयते वदतु सा बालिका फ्रेम द क्वेश्चन
सा का
वंडरफुल सा बालिका सा का नाउ आई एम जस्ट टेकिंग फ्यू वर्ड्स मीनल भगिनी यू आर गोइंग टू मेक द चॉइस सह
आम
सह सह नरः वा नारी वा
सह नारी वा यू वांट शुड आई मेक द क्वेश्चन
नहीं आई हैव गिवन यू टू ऑप्शंस सह नरह वा नारी वा नरह टू चॉइसेस
अहम नारी सह 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 नारी
सह नरह वा नारी विच वन इज द करेक्ट
सा नारी अस्ति
सा नारी अस्ति परंतु सह सह
सह नरह अस्ति
सह नरह नरह इज द करेक्ट ऑप्शन
यस सह नरह अस्ति
वेरी नाइस नाउ वन मोर क्वेश्चन यू हैव टू मेक द चॉइस सा
भूमि
वा कपि भूमि वा कपि
सा भूमि अस्ति
सा भूमिः कपिः नास्ति कपि भवेत् चेत् किं भवति सः कपिः
सा भूमि अस्ति कपि नास्ति
बहु सम्यक् Now, इदानीं मेक् द चोयिस् अहं लिसन् टु द क्वेश्चन् वेरि केर्फुलि अहं महिला वा शिष्या
अहं महिला वा शिष्य अहं महिला अस्ति न अहं महिला अस्मि वा शिष्या न अस्ति
शिष्या अपि भवेत् शिष्या इस् डिसिपल
ओके अहं महिला अस्मि शिष्या अस्ति शिष्या अस्मि च समथिङ्ग् लैक् देट् केन् यू मेक्
नो अहं महिला अपि अस्मि शिष्या अपि अस्मि
ओके अहं महिला अस्मि ओके
वदतु
भगिनी केन् वी जायिन् दिस् टु सेण्टेन्स् अहं महिला शिष्य अस्मि च
अहं महिला शिष्या च अस्मि इदर् यु केन्
च अस्मि
द एण्ड् आर् अपि यु केन् मेक् यूस् आफ् द वर्ड् अपि
सो
ऐ पर्पस्ली पुट् दिस् क्वेश्चन् बिकास् बोत् द चोयिसेस् आर् करेक्ट् okay
yes,
now just one more question listen carefully aham just imagine this is not exactly aham means I am Neeta speaking here aham aham balakah va balika va shishyah va shishya make the choice
aham balika shishya च अस्मि
जस्ट् थिङ्क् आन् इट् हियर् वाट् ऐ डोण्ट् यु डोण्ट् हव् टु कन्सिडर् मै सेल्फ् एस् वन् लेडी आस्किङ्ग् यु एस् न हियर् अहम् एकनिमिषम् अहं त्रिषु लिङ्गेषु समानः त्रिषु लिङ्गेषु समानः क्योकि जस्ति अहं Now, if Dipti Bhagini wants to say, she can say, Aham Dipti. Rajan Mohodaya, api, even he can say, Aham Rajan, Aham Lakshmi, Aham Meenal, and so on. But with respect to Sah, Sa, Te,
okay.
Keshah, we have to distinguish bhavan bhavati right okay. trishu lingeshu samanata tatra nasti right see the one exercise we did vayam vayam is all. When we say vayam,
we all
so among us we have minal bagini we have myra child and ramani bagini rajan mohd we all are together respective of strilingam va pullingam right so aham and vayam trishu lingeshu samana भवान् सः एषः पुल्लिङ्गि एकवचनान्तम् भवन्तः ते
भवत्याः
न भवन्तः ते एषः एकवचनान्तम् वट् इस् दि बहुवचनान्तरूपं फोर् एषः
Asia is ta, sa, Asia.
Okay, I'll tell you how to remember. When it is saha, correct. When it is saha, it becomes ete. So when it becomes Asia, it becomes ete. I'll write and show you everything.
Eta,
ete.
Okay.
Okay. So now, and then in Strilingi, what happens? Bhavati. बहुवचनान्तरूपं भवत्यः एकवचनान्तं सा बहुवचनान्तं ताः एषा एकवचनान्तं बहुवचनान्तं एताः ओके सो वाट् वी हाव् टु रिमेम्बर् हियर् इस् अहं वयं त्रिषु लिङ्गेषु समानः परन्तु भवान् कृते वा सः कृते वा एषः कृते भिन्नानि रूपाणि सन्ति पुल्लिङ्गि भवान् सः एषः एकवचनान्तरूपं भवन्तः ते एते बहुवचनान्तरूपाणि तथैव भवति सा एषा स्त्रीलिङ्गिरूपाणि भवत् स्त्रीलिङ्गि एकवचनान्तरूपाणि भवत्यः ताः एताः स्त्रीलिङ्गि बहुवचनान्तरूपाणि ओके सो टोटल् 16 वर्स् ऐ टोल्ड् यु नो टु मोर् आर् लेफ्ट् and later on we will write everything and we'll have a slide also for us everything don't worry so two more words we have to remember idanim myra beta are you there unmute yourself myra not there gone somewhere okay now chinte to why I'm calling her because I have to use the word tvam and you people are I can call myra tvam dekhi sanskrit bhasha is very sanskritic sort of thing so I have to address to all as bhavan va bhavati I can't call tvam so myra is a child so I can call her tvam now imagine anita bagini she's balika imagine Myra is not responding. So we will consider Anita Bagini Balika. So I'm telling Anita Bagini. Anita Tvam Balika. Anita Tvam Balika. Anita Tvam Balika. Now just imagine Anita Bagini is sitting with 3-4 children around her. So what I can say? Yuyam Balikaha. So 3-4 more girls are sitting with Anita Bagini. So I'm telling Anita, Tvam Balika. And then to all girls sitting along with Anita, I'm saying, Yuyam Balikaha. Now, what is Tvam? Tell me. Anita Bhagini, what is Tvam and you here?
You, singular and you, plural.
Yes, perfect. Tvam, Yuyam. Tvam, Balika. Yuyam, Balikaha. Now, just listen carefully. Listen carefully. Ramni Bhagini. You just tell me whether I am right or wrong, Ramni Bhagini. Just imagine I am saying this to somebody else. Yuyam, Yuyam, Balakah. Yuyam, Balakah.
It is not
right
correct. Yuyam, Yuyam, Balakah.
Yuyam, Balakah. And then when I am pointing out one single, then it becomes Tvam.
Tvam, Balakah.
Okay. Now, katham iti bhavati, I am telling Anita Bhagini, Tvam Balika, Yuyam Balikaha, and then I am also saying, Tvam Balakaha, Yuyam Balakaha, Balakaha, Pulingi Asti, Balika Tu, Srilingi Asti, katham Tvam Yuyam Samana Eva Bhavati.
Tvam Trilingiki.
Trishu Lingeshu Samana. Bahu Samyak. Aham, Vayam, Tvam, Yuyam. Forms remain the same for both the genders. Is it clear? Now let us write whatever we have learnt. Danim, Kinchit Lekhanam Kurmaha. Drushyate? Drushyate?
Haan Bhagini.
Haan. Now, just go on telling me what we have learned today. Which words we have learned today. Just go on telling. Anybody can unmute and tell me.
Aham.
Saha kaha. Saha kaha.
Aham. Then? Come on.
Vayam.
Vayam. Vayam. Vayam.
Bhavati, Bhavati, Bhavan.
Bhavan.
Bhavati, Bhavan.
Bhavatyaha.
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 Bhavatyaha. Anantara.
Bhavantaha.
Bhavantaha.
Bhavantaha. Then?
Sah
bhavatyaha
sah
kah ka ke
ha correct sah ka ke and
ha
vayam
okay sah anantaram
सह
एषः एषः अनन्तरं
सा एषः
सा एषा देन्
यूयं
त्वं
यूयं
यूयं
त्वं यूयं एण्ड् नथिङ्ग् इस् लेफ्ट् नौ त्वं
ते ते बेनि ते
एताः बहु सम्यक् बहु सम्यक् एते
एताः
ते एताः So these are the words we studied today. Now, what we will do? Somebody, as for your choice, anybody can come forward and make the sentence of each and every word. who is ready?
I can try. Lakshmi,
please try. Lakshmi bagini, try.
Aham adhyapakah.
Who else is ready?
अहम् अध्यापकः भवती भवती छात्रा भवान् वैद्यः वयं महिलाः भवत्यः भवत्यः परिचारिकाः
बहु सम्यक्
भवन्तः स्वर्णकाराः
बहु सम्यक्
सः वृक्षः एषः ऐ डोण्ट् नो ऐ एम् कैण्ड् आफ् थिङ्ग् आफ् अ वुड्कटर् बट् ऐ डोण्ट् नो द सांस्कृत वर्ड् फार् अ वुड्कटर् or a carpenter
ashtakar
dakshakah na
takshakah takshakah
oh takshakah takshakah kah is a carpenter isn't it
yes
sa sa I don't know if I can say this sauchika
Yeah, you can make just by adding one pratyaya asti tatra tapiti pratyaya. We'll have this. No. Yeah.
Okay. Esha, I don't know. I want to say she's a good person, but I don't know. Esha.
Esha. Good lady.
Yeah. Lady is Mahila. Good is samyak mahila I don't know if I can say that
or you can say
uttama mahila
uttama mahila
esha uttama
pravina mahila
okay esha uttama mahila tvam balakah yum lekikaha ते what can they be they can be okay te nyayadishaah
te nyayadishaah
and after te taah lekikaah and I'm not sure what ete ete vrikshaah or ete vrikshaah etaah malaah etaah malaah
samyak
I can say भवान् सः भवति का एण्ड् देन् भवत्यः के भवन्तः सोरि भवत्यः काः भवन्तः के
सम्यक् बहु सम्यक् भगिनि बहु सम्यक्
समीचीनं थेङ्क् यु
नौ दीप्ति भगिनी तस्मात् पूर्व श्रीवत्समहोदय एकवारं प्रयत्नं करोति वा
भगिनि
प्रयत्नं करोतु
अहम् अध्यापकः भवती भवती महिला भवान् भवान् छात्राः
भवान् छात्रः
भवान् छात्रः वयं पुरुषाः वयं पुरुषः भवत्यः भवत्यः सो भवत्याः गायिकाः
सम्यक् बहु सम्यक् भवत्याः गायिकाः
भवन्तः अध्यापकाः
अध्यापकाः सम्यक्
सः बालकः एषः छात्रः सा बालिका एषा गृहिणी त्वं छात्रः यूयं क्रीडापटुः लैक्
क्रीडापटवः
ओके यूयं क्रीडापटवः
तत्र पटु इति सिङ्गुलर् फार्म् मध्ये आगच्छति बहुवचनान्तरूपं पटवः क्रीडापटवः
यूयं क्रीडापटवः ते वानरः ता माला
ते वानरः ताः
मालाः एते पुष्पः
एते भवेत् चेत् एते वृक्षाः एते वृक्षाः
एते वृक्षाः एताः एताः महिलाः
सम्यक्
ओके कः कः इस् अ क्वश्चन् मार्क् एषः कः एषा का
एषा का सम्यक्
एषा का के बालिकाः
के बालिकाः न भवेत् तत्र के बालकः बालकाः इति भवति खलु के बालकाः
ओके के बालकाः काः के बालकाः काः महिलाः
काः महिलाः बहु सम्यक् महोदय बहु सम्यक् बहु समीचीनमस्ति अनन्तरं दीप्ति भगिनी प्रयत्नं करोतु दीप्ति भगिनी अनन्तरं शैलेन्द्रमहोदय एण्ड् देन् विल् गो फार् स्टोरी दीप्ति भगिनी
अहं छात्रा भवती शिक्षिका भवान् अध्यापकः वयं वयं
बालकाः
भवत्याः वैद्याः
भवत्यः वैद्याः सम्यक् बहु सम्यक्
भवन्तः सेवकाः
भवन्तः सेवकाः
सः पुरुषः एषः सर्पः सा घटी
सा घटी
एषा
एषा बालिका
त्वं रक्षकः यूयं यूयं बालकाः
बालकाः यूयं कुम्भकाराः यूयं स्वर्णकाराः यूयं लोहकाराः or anything or you can say यूयं परिचारिकाः because यूयं remains common for all genders right okay.
ते masculine so ते नराः
ते नराः
ताः अम्बाः अम्बाः
यदि जननी भवेत् चेत् कथं भवति दीप्ति भगिनी
जननी जनन्यः
जनन्यः ताः जनन्यः सम्यक्
एते चषकाः
एते चषकाः
एताः लेखन्याः
लेखनी न
लेखन्यः कः भवान् कः सा का एण्ड् के जनाः एण्ड् काः भवान् भवती काः नो भवत्याः काः
भवत्याः काः करेक्ट् सी प्राक्टिकली देट् कः विल् गो टु एनी फार्म् विच् इस् सिङ्ग्युलर् रैट् सो भवती भवान् कः सः कः एषः कः ओके त्वं कः अहं कः इति ग्रामेटिकली इट् इस् नाट् wrong as such but kah aham ko hum and all that is all it will go to philosophy so that won't be there but kah we can attach to any form which is in singular kah singular masculine ka singular feminine ke plural masculine kah plural feminine ओके शैलेन्द्र धन्यवाद दीप्ति भगिनी शैलेन्द्र महोदय भवान् प्रयत्नं करोति वा
अस्तु
वदतु
अहं छात्रा भवती भवती का भवान् कः वयं छात्राः भवत्याः काः
भवत्याः काः सम्यक्
भवत्याः काः भवन्तः भवन्तः के
सम्यक्
सः नरः एष बालकः
एषः बालकः
एषः बालकः सा बालिकाः
सा बालिका
सा बालिका
एकवचनान्तमस्ति खलु सा बालिका
एषा बालिकाः
एषा बालिका एषा बालिका सा दूरे स्थिता अस्ति चेत्
सा बालिका समीपे अस्ति चेत् एषा बालिका
एषा बालिका त्वं त्वं बालिकः
त्वं बालिका
त्वं बालिकः त्वं
बालिकः बालिकः इति न बालिका
बालिका त्वं बालिका यूयं बालिकाः
सम्यक्
ते ते
any masculine form in plural
te naraha
naraha va chashakah va dandah anything okay te ghatah right ha then
tha
ताः फेमिनैन् प्लुरल् ताः
ताः बालिकाः
बालिकाः कुञ्चिकाः नद्यः मालाः ओके देन्
सः कः
सः कः सा का
के जने
तत्र के जने मा भवेत् तत्र के इति के जनाः इति भवति
के जनाः
प्लुरल् के जनाः
के जनाः
काः
काः
काः सी इट् इस् काः सो इट् रिप्रेसेण्ट् फेमिनैन् प्लुरल् काः काः मालाः वा काः कुञ्चिकाः लैक् दट् काः भवत्यः भवत्यः काः स्पष्टमस्ति महोदय भवत्यः काः स्पष्टमस्ति महोदय एनिबडि वुड् लैक् टु ट्राय् और् वी केन् गो फार् द नेक्स्ट् लास्ट् पार्ट् एनिबडि वाण्ट्स् टु ट्राय् शेल् वी प्रोसीड् फर्दर् फार् द लास्ट् पार्ट् आफ् टुडे सेशन् सो ऐ विल् जस्ट् शो यु द चार्ट् just a minute so this is the table screen drushyate दृष्टि वा सेल्वी भगिनी एकवारं पठति वा लेफ्ट् पार्ट् एकवचनं बहुवचनम् अहं वयम् एण्ड् आल् देट् सेक्षन् सेल्वी भगिनी पठति वा पठतु कृपया पठतु
एकवचनं बहुवचनम् अहं वयं त्वं यूयं भवान् भवन्तः भवती भवत्यः
सम्यक् धन्यवादः धन्यवादः अनिता भगिनी अनिता भगिनी अस्ति वा ओके जयन्ती भगिनी पठति वा
आम् आं भगिनि
पठतु
एकवचनं सा बहुवचनं ताः एक एषा एताः सः ते एषः एते
बहु सम्यक् सो दिस् इस् देबल् धन्यवादः दिस् इस् द टेबल् विच् यु हव् टु रिमेम्बर् ओके नौ लेट्स् हाव् स्टोरि नौ इन् स्टोरि आल्सो वाट् वी आर् गोयिङ्ग् टु डु विल् आस्क् क्वश्चन् एण्ड् बिट्वीन् based on whatever we have learned today. Pay attention everyone. Ekasmin grame eka vruddha mahila vasati. I repeat, Ekasmin grame eka vruddha mahila vasati. Idanim Radha Bhagini? Ekasmin grame ka vasati?
Ekasmin grame eka vruddha mahila vasati.
Bahu samman. Sa vruddha mahila, sa वृद्धा महिला मधुरम् अपूपं करोति अपूपं यु नो वाट् इस् अपूपं मिष्टान्नमस्ति स्वीट्
ओके
इन् अ विलेज् देर् वास् एन् ओल्ड् लेडी एण्ड् देट् ओल्ड् लेडी वास् मेकिङ्ग् डेलिशियस् स्वीट्स् सा वृद्धा महिला मधुरम् अपूपं karoti. Now if I want to frame the question, so this is not something which we have learned today, but just to make you understand, sa vruddha mahila kim karoti?
Apupam karoti, madhuram apupam karoti,
madhuram apupam karoti. So what is this kim
question
if you are saying
what
neutral gender? So, if you are saying ka for masculine, ka for feminine, then kim for neutral gender. In detail, we will be studying after some periods. I mean, after 2-3 lectures, we will go for kim, ke and all, tani and all. Okay. So, sa vruddha maila madhuram apupam karoti. Ekasmin grame eka vruddha maila vasati, sa madhuram apupam karoti. Okay. Then what happens? एकदा चोरः काकः तत्र आगच्छति चोरः काकः तत्र आगच्छति एकदा तत्र कः आगच्छति लक्ष्मी भगिनी
सोरि सः
कः आगच्छति
तत्र आगच्छति
चोरः काकः आगच्छति ओके तत्र आगच्छति
ओके सोरि ऐ मिस्ड द क्वेश्चन
ओके सो एकदा तत्र चोरः काकः आगच्छति चोरः काकः महिलायाः एकम् अपूपं चोरयति महिलायाः एकम् अपूपं चोरयति इदानीम् अम्बिकापतिमहोदय फर् दिस् सेण्टेन्स् चोरः काकः महिलायाः एकम् अपूपं चोरयति वुड् यु प्लीस् मेक् क्वेश्चन्
चोरः काकः किं करोति
और अनदर फॉर्म एकं अपूपं कः चोरयति चोरः काकः चोरयति ओके चोरः काकः एकं अपूपं चोरयति सो दीस आर द डिफरेंट वेज बाय विच वी कैन फॉर्म द क्वेश्चन सो वंस the crow comes over there and steals one of the delicious sweets which that lady was making. Right. And then what happens? Kakaha अपूपं चोरयति अनन्तरं काकः उन्नते वृक्षे उपविशत् काकः उन्नते वृक्षे उपविश्यति नौ फ्रेम द क्वेश्चन अम्बिकापति महोदय काकः उन्नते वृक्षे उपविश्यति न श्रूयते
काकः काकः कुत्र उपविशति
कुत्र उपविशति दट् इस् वन् क्वेशन् और् उन्नते वृक्षे कः उपविशति उन्नते वृक्षे काकः उपविशति सो रैट् नौ वी हव् नाट् स्टडीड् दट् कुत्र पार्ट् आफ् इट् सो इट् केन् बि उन्नते वृक्षे कः उपविशति फैन् नौ आफ्टर् गोयिङ्ग् देर् उन्नते वृक्षे काकः
sorry I have a question unnata vruksha is a tall tree is it
yes unnata vruksha tall tree I'm sorry I would have mentioned it earlier sorry unnata vruksha is tall tree okay so he was sitting on a tall tree sitting on a tall tree what he did he started eating the sweet now even though the story happened in past I'm intentionally making everything in present so I will say काकः उन्नते वृक्षे उपविश्यति काकः मधुरम् अपूपं खादितुम् आरम्भं करोति सिटिङ्ग् आन् अ टाल् ट्री क्रो स्टार्ट्स् ईटिङ्ग् द स्वीट् मधुरम् अपूपं खादितुम् आरम्भं करोति देन् वाट् हेपन्स् तदानीम् इदानीं तदानीं वाट् इस् द डिफ्रेन्स् तदानीम् इत्युक्ते
देन् आफ्टर् देन्
इदानीम् इत्युक्ते नौ रैट् इदानीं तदानीं तदानीम् एट् दट् टैम् एकः जम्बुकः तत्र आगच्छति एकः जम्बुकः तत्र आगच्छति रमणी भगिनी तत्र कः आगच्छति
वृक्षस्य उपरि आगच्छति उन्नतवृक्षस्य उपरि
उन्नतवृक्षस्य उपरि उन्नते वृक्षे काकः अपूपं खादितुम् आरम्भं करोति तदानीं तत्र कः आगच्छति
जम्बूकः आगच्छति
जम्बूकः तत्र आगच्छति नौ लिसन् टु द क्वेश्चन् वेरि केर्फुलि यदा काकः उन्नते वृक्षे मधुरम् अपूपं खादितुम् आरम्भं करोति तदा कः तत्र आगच्छति
जम्बूकः तत्र आगच्छति
सम्यक् गिव् आन्सर् इन् फुल् कम्प्लीट् सेण्टेन्स् हू विल् रिपीट् इट्
यदा काकः मधुरम् अपूपं खादितुम् आरम्भं करोति तदा एकः जम्बूकः तत्र आगच्छति
बहु सम्यक् भगिनि बहु सम्यक्
धन्यवादः
सो धन्यवादः वन् जटाल् कम् देर् सो हि कम्स् देर् एण्ड् देन् जम्बूकः वदति वेरि कनिङ्ग् फाक्स् इस् वेरि कनिङ्ग् सः वदति भो काकमहोदय भवान् अतीवसुन्दरः किमर्थं दत्वा भवान् इति दत्तमस्ति या एण्ड् देन् इट् इस् पुल्लिङ्गि फार्म् काकः सः काकः एषः काकः भवान् काकः भवान् अतीवसुन्दरः अनन्तरं वदति कण्ठस्वरः अपि रमणीयः कण्ठस्वरः कण्ठस्वरः इत्युक्ते कण्ठवर्णाः वयं पठितवन्तः
वाय्स्
वाय्स् कण्ठवर्णाः वि स्टार्टेड् अवर् सेशन् वित् देट् कण्ठवर्णाः सो देट् कण्ठ युर् वाय्स् इस् आल्सो वेरि स्वीट् ओ क्रो यु आर् सो ब्यूटिफुल् यु आर् वेरि ब्यूटिफुल् एण्ड् युवर् वाय्स् इस् आल्सो वेरि स्वीट् वेरि ब्यूटिफुल् कण्ठस्वरः अपि रमणीयः कृपया एकं गीतं गायति वा एकं गीतं गायति वा Will you please sing one song for me? Your voice is very sweet. Just sing one song for me. O Crow, just sing one song for me. Bhavan Ativa Sundarah, Kanthaswarah Piramaniya, Tupaya Ekam Geetam Gayativa. Then what happens? What happens?
The crow is very pleased.
गीतगायनम् आरम्भं करोति जम्बुकस्य वचनानि काकः शृणोति सो हि वास् वेरि मच् प्लीज् बै देट् फाक्स् कनिङ्ग् फाक्स् स्वीट् वर्ड्स् एण्ड् देन् हि गोट् अट्राक्टेड् जम्बुकस्य वचनानि काकः शृणोति मोहितः काकः अत्र मोहितः इत्युक्ते He got attracted, no? Attracted because of those flattering words. So, Geeta Gayanasya Arambam Karoti. Starting singing. He opens the mouth to sing. Okay. Swakiyam Mukham Prasarya Geeta Gayanam Karoti. So, he started singing and then what happened? What happens when you complete in Sanskrit Bhashayam?
Ataha Padati.
Kakasya Mukhat Apupam Adha Patati. And then Jambukaha Apupam Svikaroti. Kaha Apupam Svikaroti? Radha Bhagini?
Adha Apupam Svikaroti.
Jambukah.
Jambukah, how do you say it fell down? Right? It's on the ground.
No. See, what happens? See, kakasya mukhat madhuram apupam adhah patati. Adha is down. Okay? So falling on the ground.
Mm-hmm.
Adhah patati. So, jambukah kim karoti? Apupam svikaroti.
Mm-hmm.
Kaha apupam svikaroti? जम्बुकः हि टेक्स् देट् स्वीट् कः अपुपं
स्वीकरोति स्वीकरोति सोरि
इट्स् ओके इट्स् ओके जम्बुकः अपुपं स्वीकरोति करेक्ट् इदानीम् अनन्तरं जम्बुकः सन्तुष्टः भवति सो कः सन्तुष्टः भवति राधा भगिनी
जम्बुकः सन्तुष्टः भवति
Okay, after getting that sweet apup, he was very happy and goes away very happily. Santushtah bhavati dhavati. Okay, so this is the story we have learned today. Huh? So now, can anybody just briefly tell me the story? Shall I take the name? Somebody wants to try. I will request Augusto Mahodaya. Would you please try?
I can try yes. in English.
Okay. You start in Sanskrit language, and whenever there is problem, we all will help you. Don't start.
Okay, I made some annotations. Can I consult my or just by memory?
No, I'm not getting. No,
make some annotations and connect.
Yes. Okay. Very well. No issues.
Ekasmin grame eka vridha mahila vasati. Some old woman lived in a in a village. And she is Tamahila Vritha Madhuram Apupam Karoti.
Madhuram Apupam Karoti. Samek.
She makes some sweets. Ekada Choraha Kakaha Tatra Agachati.
Choraha Kakaha Tatra Agachati.
Kakaha is I forgot the word in English. A bird.
Sanskrit bhashayamev vadatu tatra choraha kakaha agacchati.
Kakaha, a thief kakaha. There comes there. And mahilayaha ekam apupam chorayati.
Kakaha chorayati.
Kakaha gets one of the apupam sweet. Anantaram kakaha unnate vrikshe upavishyati.
Samyak, unnate vrikshe upavishyati. Upavishyati, it is, no? Upavishyati.
Seated. Okay. Unnatra viksha, vikshaha, tall tree, okay? Kakaha madhuram apupam kaditum arambham karoti.
Bahu samyak. Then?
Tadanim. Ekaha. I didn't understand jambukaha.
Jambukaha.
Jambu?
Jambukaha. Ja, ma, ba, u, dirgha u. Jambukaha.
With B, jambuka.
Jambuka.
Yes, jambuka. Yes, jacko. Okay. Kaha tatra agachati. Yada kakaha unnate vrikshe. No, this is already done.
Anantaram
janmukaha vadati. Bho kaka mahodaya. Bhavan ativa sundaraha. Vadati. Kantaswaraha.
Api ramaniyaha.
Kripaya ekam. Ekam, I didn't understand the word.
Gitam. Ekam. Gitam.
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 Gayativa.
Gayativa.
Kakaha srinoti. Jambu kasya vachanani. Gita. Gayanasya arambham karoti.
Bahu samyak.
Kakasya mukha apupam patati.
Apupam adha patati.
Jambukaha apupam svikaroti.
Bahu samyak.
Santushtaha bhavati.
Bahu samyak.
Danyavada.
सर्वे छात्राः चतुराः सन्ति अस्माकं वर्गे सर्वेषां धन्यवादाः प्रश्नाः सन्ति चेत् कृपया पृच्छन्तु इफ यू हैव एनी डाउट प्लीज आस्क नो चेत् वयं स्थगयामः एनीबडी हैज गॉट एनी डाउट No doubt.
Bhavati Vasurena Asmakam Vargam Chalayati Kila Ataha Vayamapi Chaturaha Bhavanti.
Dhanyavada.
Very true. Yes, I agree.
Ananda Manubhuami.
Bahu Samyak Bain. Bhavati Dvanyapi Bahu Samyak Asti.
धन्यवादः
मैडम. मैडम, आई हैव अ क्वेश्चन.
यस.
इन द स्टोरी द जम्बूका सेज कंठस्वरः अति रमणीयः.
कंठस्वरः अपि रमणीयः.
अति अर अपि
कंठस्वरः अपि रमणीयः. अपि भवान् भवान् तु सुन्दरः. सो एक्चुअलि इट हेज टु बी वेन यू से इन अ प्रॉपर लैंग्वेज इट विल बी भवान् अतीव सुन्दरः. भवतः षष्ठी विभक्ति. भवतः कंठस्वरः अपि रमणीयः. बट आई एम नॉट सेइंग दैट भवतः राइट नाउ बिकॉज वी मे गेट कंफ्यूज बिटवीन भवान् बिकॉज टुडे ओनली वी हैव लर्नड ना भवान् भवन्तः भवती भवत्यः. तत्र भवतः न वक्तुम् इच्छामि अहम्. अतः अहं भवतः एक्चुअली भवतः कंठस्वरः अपि रमणीयः. ओके
मैडम, कैन दैट बी सेड दिस वे अल्सो कंठस्वर अपि मधुर अपि मधुरः.
कंठस्वरः अपि मधुरः रमणीयः.
फाइन.
That's all. These are adjective, right?
Yeah, okay.
Adjective. Ramaniya ityukte rama dhatu asti tatra. Rama. Atah okay. Ramaniya. Ranjakah tatapi chalati. Astu modaya. Dhanyavad.
I also have a doubt. The Jambukaha tells the Kakaha, Kripaya ekam gitam gayati va. Instead of that, he can also say, Kripaya ekam gitam gayatu. He can just tell the Kaka to sing, yeah.
Yes, yes. But I don't want to introduce Lot Lakar there, Adnyarthi Rupa, okay. To avoid the confusion. Okay, so that's the point. Okay. So slowly we will learn all that, na? Let lakar, lot lakar, lang lakar, and then butkar and all. So at that time we can introduce. So this is just a simple thing to make you familiar with the words, right? So otherwise,
okay, thank you.
Some may get confused now. Hi, that gayati and gayatu, katham that gayatu agachati and all. So okay. I didn't introduce that, right?
Okay, thank you.
Okay, Bhagini. Okay. Shanti Mantram. Dhanyavad. Shanti Mantram Kopi Vadati Va Krupaya.
Sarve Bhavantu Sukhinah. Sarve Santu Niramayah. Sarve Bhadrani Pashyantu. Ma Karcha Dukha Bhag Bhavet. Om Shanti 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 Hi. Harihi Om. धन्यवादः
धन्यवादः धन्यवादः.